एस रेडियो नेपाल सम्प्रति समाचार श्रूयन्ताम् प्रवाचक उपेन्द्र दाहाल निर्वाचनायोगेन निर्वाचनाचार संहितायाः उल्लङ्घनकर्तृभ्यः राजनीतिक दलेभ्यः प्रत्याशिभ्यः सर्वकारस्य पदाधिकारिभ्यः सर्वकारीयेतर संघ संस्थाभ्यश्च स्पष्टीकरणं पृष्टं वर्तते। कोशी प्रदेशस्य मुख्यमन्त्रिणा हिक्मत कुमार कार्किणः आयोगेन आचार संहितायाः क्रियान्वयने कठोरताम् अवलम्ब्य सर्वकारीय स्रोतसाम् दुरूपयोगस्य अन्य निषिद्ध गतिविधिषु संलग्नतायाश्च आरोपे स्पष्टीकरणं स्पष्टं वर्तते। एवमेव बालबालिकाः राजनीतिक गतिविधिषु प्रचार प्रसारयोः कार्ये च प्रयुक्ताः इति आरोप्य आचार संहिताया उल्लङ्घनस्य निवेदनस्य प्राप्तेः पश्चात् धरान नगरस्य प्रत्याशिने हर्क साम्पाङ इत्यमुम् सावधानीकृत्य तस्मात् स्पष्टीकरणं याचितमस्ति। एवमेव आयोगेन नेपाली कम्युनिष्ट दलस्य प्रत्याशिने शक्तिबहादुर बस्नेत इत्यस्मै, राप्रपा दलस्य प्रत्याशिने डा सुरेन्द्र भण्डारिणे, रासोपा दलस्य प्रत्याशिने जगदीश खरेलाय च स्पष्टीकरणं स्पष्टं वर्तते इति ज्ञापितमस्ति। आयोगस्य अनुसारेण अधुनावधि राष्ट्रिय खेलकूद परिषद प्रवृत्तिभ्य निकायेभ्य विभिन्नाभ्य व्यक्तिभ्यश्च आचार संहितायाः अपालनस्य अष्टानाम् निवेदनानाम् प्राप्ते पश्चात् स्पष्टीकरणं पृष्टं वर्तते। आयोगेन आचार संहितायाः पूर्णतः पालनं कर्तुम् उल्लङ्घनं विहितं सद विधेयरनुसारेण कठोरेण दण्डयितुं च प्रत्यादिष्टं च वर्तते। अत्रान्तरे संघीय विषय सामान्य प्रशासन मन्त्रालयेन एतद् विक्रम वर्षीयायाः निर्वाचनाचार संहितायाः क्रियान्वयनं कर्तुं 53 सप्तशतमेव स्थानीय पालिकाः 77 जनपद समन्वय समितयश्च निर्दिष्टाः वर्तन्ते। सर्वकारेण गत पौष मासस्य द्वादशे दिवसे नेपाल राजपत्रे सूचनां प्रकाश्य आचार संहिता सार्वजनिकृता आसीत्। आगामिना फाल्गुन मासस्य एकविंशे दिवसे सम्पत्स्यमानं प्रतिनिधिसभा सदस्यानां निर्वाचनं लक्ष्यीकृत्य निर्वाचन आयोगेन संचालिते दूरभाष सम्पर्क केन्द्रे मतदातृणां सम्बद्ध पक्षाणां च आकर्षणं वर्धितं वर्तते। अस्यैव माघ मासस्य पञ्चमे दिवसे आयोगस्य परिसरे प्रारब्धे दूरभाष सम्पर्क केन्द्रे ह्य रविवासरं यावत् 92.7 जनैः विभिन्नेषु विषयेषु जिज्ञासा उपस्थापिता इति आयोगेन ज्ञापितम् वर्तते। आयोगस्य अनुसारेण प्राप्त जिज्ञासासु सर्वाधिकाः मतदातृनामावल्या सह सम्पृक्ताः वर्तन्ते। प्रात 9 सायं 6 यावत् निर्वाचनस्य क्रमे नागरिकेषु अन्येषु सम्बद्ध पक्षेषु च विद्यमानं द्वैविध्यं निवारयितुम् आयोगेन निःशुल्करूपेण दूरभाषस्य कृते 1100 चेति अंकाः निर्धारिताः वर्तन्ते, यत्र 15 जनै सकृत दूरभाष कर्त् शक्यते इति व्यवस्था विहितास्ति। आगामिना फाल्गुन मासस्य एकविंशे दिवसे आयोक्ष्यमाणस्य प्रतिनिधिसभा सदस्यानां निर्वाचनस्य समानुपातिक प्रणाल्या कृते मतपत्राणां मुद्रण कार्यं सम्पन्नमस्ति। सानोठिमी वर्तिनी जनक शिक्षा सामग्री केन्द्रे ह्य समानुपातिक प्रणाल्या कृते 2,00,000 50,000 च मतपत्राणि मुद्रितानि सन्तीति केन्द्रस्य प्रबन्ध निर्देशक यदुनाथ पौडेल असूचयत्। केन्द्रेण ह्यस्तन दिवसादेव प्रत्यक्ष निर्वाचनस्य कृते मतपत्राणां मुद्रण कार्यं प्रारब्धमस्तीति असूचयत्। केन्द्रेण एतत्पूर्व 10,98,000 च निदर्शन मतपत्राणां मुद्रणं विधाय निर्वाचनायोगे प्रेषितमस्ति इति ज्ञापितं वर्तते। सार्वजनिक सेवा प्रसारण नेपालेन एतद् विक्रम वर्षीयायाः प्रतिनिधिसभा सदस्यानां निर्वाचनाचार संहितायाः निर्वाचनस्य विषय अभिमुखीकरण कार्यक्रमः आयोजितोऽस्ति। सिंहप्रसाद वर्तिनी सार्वजनिक सेवा प्रसारणस्य अन्तर्गते नेपाल टेलिभिजने आयोजिते कार्यक्रमे कार्यवाहक प्रमुख निर्वाचन आयुक्त रामप्रसाद भण्डारी निर्वाचनस्य क्रमे सम्भावितानां भ्रामकानां सूचनानां निवारणाय सर्वैः संचारमाध्यमैः तथ्यपरकां सूचना प्रस्तोतुं बलं दातव्यमिति अभासत। निर्वाचन आयोगस्य सचिव कृष्णबहादुर राउत संचार माध्यमैः निर्वाचनस्य प्रतिकूलानां सामग्रीणाम् उत्पादनम् प्रसारणम् च न कर्तव्यम् इति अवोचत। कार्यक्रमे संचार सूचना प्रविधि मन्त्रालयस्य सचिव लक्ष्मी कुमारी बस्नेत निर्वाचनस्य भयमुक्तम् वातावरणम् निर्मातुम् आचार संहितायाः पालनाम् कर्तुम् सञ्चेतनायुक्ताः विश्वसनीयाः सूचना प्रसारयितुम् च संचारकर्मिणाम् भूमिका महत्वपूर्णा भवति इति चर्चयन्ती सार्वजनिक सेवा प्रसारणेन तत्र महत्वपूर्ण भूमिका निर्वोढ़ शक्यते इति उक्तवती। कार्यक्रमे सार्वजनिक सेवा प्रसारण नेपालस्य कार्यकार्याध्यक्ष डाक्टर महेन्द्र विष्ट प्रसारणेन तटस्थतया नागरिक सम्बद्धा विषया प्राथमिकतया अग्रे सारणीया इति बलम् अदात्। सर्वकारेण नेपाल सुरक्षण प्राधिकरणस्य कार्यकार्याध्यक्ष पदस्य दायित्वं संघीय विषय सामान्य प्रशासन मन्त्रालयस्य सचिवाय चन्द्रकला पौडेल इत्यस्यै प्रदत्तमस्ति। बालवाटार वर्तिनी प्रधानमन्त्री निवासे ह्य उपविष्टेन मन्त्री परिषद उपवेशेन अपराम व्यवस्थां यावत नेपाल सुरक्षण प्राधिकरणस्य कार्यकार्याध्यक्ष पदे कार्यं विधातुं मन्त्रालयस्य सचिवाय पौडेलाय दायित्वं प्रदातुं निर्णीतमस्तीति गृहमन्त्री सर्वकारस्य प्रवक्ता च ओम प्रकाश अरियाल असूचयत। मन्त्री परिषद उपवेशेन चतस्रेभ्य जलविद्युत आयोजनाभ्य वनक्षेत्रं प्रयोक्तुं स्वीकृति प्रदत्तास्ति। प्रवक्त्रा अरियालेन सुती खोला जलविद्युत आयोजनायै तामाकोशी पञ्चम जलविद्युत आयोजनायै उपरितन संखुवा सभा जलविद्युत आयोजनायै सेती खोला जलविद्युत आयोजनायै च राष्ट्रिय वन क्षेत्रस्य प्रयोगाय स्वीकृति प्रदत्तास्तीति असूचयत। दैलेख जनपदे वन्यशुकरस्य आक्रमणेन एको जन मृतोऽस्ति। आक्रमणे द्वौ जनौ आहतौ वर्तेते। वन्यशुकरस्य आक्रमणेन भैरवी ग्रामपालिकायाः पञ्चमवडा क्षेत्रस्य गढीगाउँ स्थानस्य अष्टसप्ततिवर्षीयस्य प्रदीप सिंहस्य मृत्यु सम्भूतोऽस्तीति दैलेख जनपद प्रहरी कार्यालयेन ज्ञापितं वर्तते।